अयम् दोमायन्द्रतुभ्यम् स्वन्नादप्रयाहिरिवस्तलोकाः पिबाद्वा अस्य सुषोदस्य चारोर्ददो मघवन्निजानः ब्रह्मन्नेन ब्रह्मगतिम् जुषाणोर्वाचीनो हरिभिर्याहियम् अस्मिन्नोषुदानेमालयशोमब्रह्माणि शृणवजिमानाः काते अस्त्यरम् गृहि सूक्तैः कदानुगुणम् दे मघवन्दादेव विश्वामयीरादने त्वायाधामयेन्द्रशृणवोहवेम उतो घाते पुरुष्या आयिदासनेवाम् पूर्वेषामशृणो ऋषीणाम् अथा मघवन् जोहवीन्न इन्द्रादिप्रमादिक्रिदेव भोजे मेदिन्द्रम् मघवानयेनम् महो राजो राधसो यद्दरन्न यो अर्चतो ब्रह्मकृतिमविष्ठो यूयम् पादः स्वस्तिभिः सदानः